मानो अस्मिन् मघवन् प्रत्संहसि नहि ते अन्तःशवसः परिणशे अक्रन्दयो नद्यो ओरोरुभद्वना कथा रक्षोणीर्भिजसा समारत अर्चा शक्राय शाकिनेश जीवते शृण्वन्तमिन्द्रम् महयन्नभिष्टो हि यो धृष्टो नाशवसा रोदसी उभे वृषा वृषत्वा वृषभोऽनृञ्जते अर्चा दिवे बृहते शोष्या अम्बचस्व क्षत्रयस्य धृषतो धृषन्मनाः बृहच्छ्रभा असुरो बर्हणा घृतः पुरो हरिभ्याम् वृषभो रथो हिषः त्वम् दिवो बृहतः सानुकोपयो भत्मना धृषता शम्बरम् भिनत यन्वाजिना वृन्दिना मन्दिना धृषच्छिताङ्गभस्तिमशनिम् व्रतन्यसि नियद्वृढक्षिष्वसनस्य मूर्धनिषुष्णस्य चिद्वृन्दिनोरोरुभद्वना प्राचीने न मनसा बर्हणावताय दद्या चित्कृणवः कस्त्वापरि त्वमाविथनर्यम् दुर्वशंयदुम् त्वम् दुर्वीतिम् भय्यम् शतक्रतो त्वम् रथमेतशङ्कृत्वेधने त्वम् पुरा न भतिन्दम् भयो न वा सखा राजा सत्पदिशोषभज्जनो रातहौ यः प्रतिजशासमिन्वति उक्था भाजो अभिगृणाति राधसादानुरस्मा उपरापिन्वते दिवः असमम् क्षत्रमसमामनीषा प्रसो मपा अपसा सन्तु नेमे येत इन्द्रददुषो वर्धयन्ति महि क्षत्रम् स्थविरम् वृष्ण्यम् च तुभ्येते ते बहुला अद्रिदुग्धाश्च मोषदश्च भसा इन्द्रपानाः व्यश्नोहि तर्पया काममेषामथा मनो वसुदेजाय कृष्व अपामतिष्ठद्धरुणः क्वरन्तमोऽन्तरवृत्रस्य जठरेषु पर्वतः अभीमिन्द्रो नद्यो भौरिणा हिता विश्वा अनुष्टाः प्रवणेषु जिघ्नते सशे व्रतमधिधाद्युम् नमस्मे महि क्षत्रम् जनाशालिन्द्रतव्यम् रक्षा च नो मघो नः पाहि सूरेन्द्राजे च नः स्वपत्या इषेधाः